ततो मयेन्द्रमसूदो मा तदा ब्रह्मणो मधवानम् सुदासः तस्मामुक्तम् जनये यद्विजोरन् प्रपन्नवीय शृणभद्यथानः मुक्तमुक्ते सोमयिन्द्रम् ममादनीथे मघवानम् सुदासः यदीन्द्रदक्षावसेहवन्दे चकारदाकृणवन्नो न मन्याजानि ब्रुवन्ति वेधनसुतेषु जनीरिवदेकः समानो निमानजे पुरैन्द्रस्तु सर्वाः ये वातमाहुरुदृण्डयेन्द्रयेको विभक्ता करणिर्मघानाम् यशस्तुराभूतयो यस्य पूर्वीरस्मे भद्राणि सस्त्रप्रियाणि देवावरिष्ठैन्द्रभूतयेन्द्रेन्कृष्टीनाम् वृषभम् सुते गृह्णाति सहस्रिणो मा निमाजान्यूयम् पादः स्वस्तिभिः सदानः